भूमिर्भूम्नाद्यौर्वरिणान्तरिक्षम् महित्वा उपस्थे देव्यदिधेऽग्निमन्नादमन्नाध्यायादधे आयङ्गो पृश्निरक्रमेदसनन्मातरम् पुनः पितरम् च प्रयन् सुवः त्रिगुंशद्धामविराजदिवात्पदङ्गाय शिश्रिये प्रत्यस्य वहद्युभिः अस्य प्राणादपानत्यन्तश्चरति रोशना व्यख्यन्महिषः सुवः यत्त्वा क्रुद्ध परो वपमन्युना यदवत्या सुकल्पमग्ने दत्तव पुनस्तो दीपयामसि यत्ते मन्युपरोक्तस्य पृथिवी मनुदध्वसे आदित्या विश्वे तद्देवा वसवश्च समाभरन् मनोज्योतिद्युषतामाद्यम् विच्छिन्न यज्ञगुम् समिमम् दधातु बृहस्पतित्तनुतामिमन्नो विश्वे देवा इह मादयन्ता मेदिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवी ब्रह्मवर्चस पितृणाग्रस्तोत्रम् चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूवरी सदने सद्यायने सीता समुद्रवते सावित्री अहनो देवी मद्यङ्गी महीधरणी महोव्यधिष्ठा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरिदिहा वायुमते जलशयनी श्रियन्धाराजा सत्यन्धोपरिमेदिनी सोपरिदत्तम् परिगाया विष्णुपत्नीम् महीम् देवीम् माधवीम् माधवप्रियाम् लक्ष्मीम् प्रियसखीम् देवीम् नमाम्यच्युतवल्लभाम् धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नोधरा प्रचोदयात् महीम् देवीम् विष्णुपत्नीमजूर्याम् प्रतीचीमेनागुम् हविषाय जामः त्रेधा विष्णुरुरुपायो विचक्रमे महीम् दिवम् पृथिवीमन्तरिक्षम् तच्छ्रोणैति श्रव इच्छमाना पुण्यग्रश्लोकम् यजमानाय कृण्वते ॐ शान्ति शान्ति।